श्रीरामनाथ भगवंस्तव सुप्रभातम् श्रीपर्वतेन्द्रकुलवर्धनि सुप्रभातम् श्रीरामलक्ष्मण हनुमदुपासितेश श्रीसेतुनाथ भगवंस्तव सुप्रभातम् प्राच्य प्रतीच जलधी मिलितौ तरङ्गैः मन्द्रम् मृदङ्ग निनदांस्तनुतस्तवेह मूर्छन् तटाव निरुहामिह शाखिकासु तानौ समर्पयति मारुतवांशिकोऽयम् गायन्त्यमी द्विजगणा श्रुतिरम्यमुच्चने च स्वरेण समुपाश्रितनैकशाखाः त्वत्सौखशायनिक सप्तऋषि व्रजायम् अभ्येति नन्दिमुख पार्षद दत्त मार्गः भीषातवायमरुणो अर्करथम् युनक्ति तन्मुञ्चतम् तव दृगन्तरलीनमर्कम् पूर्वम् प्रबुद्ध गिरिजा तव पादपद्मे संयोज्य नैजकर पद्ममुपस्थितेयम् तद्भूतभृच्छय विभो शयनम् विमुञ्च बुद्ध्यस्वबुद्धकमुपस्पृश नित्यशुद्ध देवी कपोलतल दर्पणमेव पश्य पश्यानताग्रसुतरूपमिमम् गजेन्द्रम् वाघो वृषः किमथ वेदृशमङ्गलैस्ते नित्यम् यदङ्कनिलयाखिलमङ्गलाम्ब श्रीरामनाथ भुवनावन जागरूक निद्राच्छलेन तदलम् दिश दर्शनम् नः बुद्ध्यस्वदेव नयनोन्निशितेन तेद्य सर्वे सुरा निजकृति प्रसृता भवन्तु धर्म्य प्रवृत्तिरपि सर्वजनोऽत्र भूयात् ते रामनाथ वृषकेतन सुप्रभातम् रामा सहस्रशयि मे भववार्धिसेतुम् तिष्ठन्ति बन्धुमिघते तरुणे क्षणोत्ताः गृह्णीष्व यात्रिकशताहृतगाङ्गतीर्थम्।